इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी अथ वार्ताः भारत न्यूजीलैंड देशौ रक्षा क्रीडा क्रीडोद्यानिक वन विज्ञान सहितेषु पञ्च सन्धिषु हस्ताक्षरं कृतवन्तौ उभावपि पक्षौ अधिकृतार्थिक परिचालन परक पारस्परिक मान्यता सन्धीनामपि आदान प्रदानं विहितवन्तौ उभौ देशौ मुक्त व्यापार सन्धिमाश्रित्य सहैव विशेषज्ञ कुशल श्रमिकाणाञ्च कुशल गतिशीलतां सौविध्ययुताञ्च विधातुं वार्तोपक्रमं समुद्घोषितवन्तौ न्यूजीलैंड देश हिंद प्रशांत महासागराणां संकल्पोपक्रमे सम्मिलितः प्रधानमन्त्रिणा नरेन्द्र मोदिना ह्यः नवदेहल्यां न्यूजीलैंड देशस्य स्वसमकक्षेण क्रिस्टोफर लक्सन इत्यनेन सह वार्तालापः साधितः चर्चायामस्यां भारत न्यूजीलैंड देशयोः सम्बन्धस्य विभिन्नाः पक्षाः सम्मिलिताः आसन् स्ववक्तव्ये श्रीमोदी अवदत् यत् असौ द्विपाक्षिक सम्बन्धस्य विभिन्नेषु विषयेषु विस्तृत चर्चां कृतवान् अपि च उभौ पक्षौ रक्षा सुरक्षयोः सहभागितां सुदृढां संस्थागतां च कर्तुं निर्णयम् अकुरुताम् श्रीमोदी उक्तवान् यत् संयुक्ताभ्यासैः प्रशिक्षणैः नौकाश्रयभ्रमणैश्च सह रक्षाद्योगक्षेत्रे अपि परस्पर सहयोगाय अनेन मार्गः सज्जीभविष्यति प्रधानमन्त्री नरेन्द्र मोदी तस्य च न्यूजीलैंड देशस्य समकक्षः क्रिस्टोफर लक्सन इत्यसौ च संयुक्तरूपेण ह्यः नवदिल्ल्यां रायसीना संवादस्य दशम संस्करणस्य उद्घाटनं कृतवन्तौ स्वभाषणे श्री लक्सन इत्यसौ अवदत् यत् भारत न्यूजीलैंड देशौ भाग्यवन्तौ स्तः यतोहि उभौ देशौ विश्वस्य आर्थिक दृष्ट्या गतिशील क्षेत्रस्य भागौ स्तः न्यूजीलैंड देशस्य प्रधानमन्त्री अग्रे अवोचत् यत् रायसीना संवादः एतादृशो मञ्चो वर्तते यो हि विश्वस्य विचारकेभ्यः हिन्द महासागरे समकालिक कार्यनीतिक समाह्वानेषु स्वसामूहिक मनस्सुकां केन्द्रीकरोतीति अपि च वार्षिकावसर प्रदानाय एकः मञ्चोऽपि विद्यते अस्य वर्षस्य रायसीना संवादस्य विषयः अस्ति कालचक्रः जनाः शान्तिः ग्रहश्चेति ह्यः नवदिल्ल्यां भारतस्य रक्षामन्त्रिणा श्रीराजनाथसिंहेन अमेरिकायाः राष्ट्रिय गुप्तचर निदेशिकया तुलसी गबार्ड इत्यनया सह उपवेशनं विहितम् उपवेशनावधौ उभौ नेतारौ सबलम् अंगीकृतवन्तौ यत् सामरिक सुरक्षा उभयोः देशयोः वैश्विक सामरिक सहयोगस्य प्रमुखः स्तम्भः वर्तते श्रीसिंहेन सुश्री गबार्ड इत्यनया च भारतामेरिकादेशयोः सैन्याभ्यासस्य सामरिक सहयोगस्य सूचना संवहन सहयोगस्य सहैव सागरीय क्षेत्रेषु कृतायाः प्रमुखा प्रगतेः समीक्षा कृता दिल्ली विधानसभा अद्यारभ्य नवदिल्ल्यां स्वनवनिर्वाचितेभ्यः सदस्येभ्यः द्विदिवसीयस्य कार्यक्रमस्य आयोजनं करिष्यति अस्य कार्यक्रमस्योद्घाटनं लोकसभाध्यक्षः ओम बिरला इत्यसौ विधास्यति कार्यक्रमस्यास्य प्रयोजनं विधायकेभ्यः संसदीय प्रक्रियानाम् आचार संहितायाः सर्वोत्तम शासनागत प्रथानां च ज्ञानप्रदानमिति वर्तते उद्घाटन सत्रे दिल्ली विधानसभाध्यक्षः विजेन्द्र गुप्ताः उपाध्यक्षः मोहन सिंह बिष्टः दिल्ल्याः मुख्यमन्त्री रेखा गुप्ता विपक्षदलीया नेत्री आतिशी अथ च अनेके गणमान्यजनाः उपस्थिताः भविष्यन्ति कबड्डी विश्व चषक प्रतिस्पर्धा ह्यः सायंकाले ब्रिटेन देशे समारब्धा भारतेन वॉल्वरहैम्पटन नगरे पुरुषवर्गीये द्वन्द्वे इटली दलं चतुष्षष्टि द्वाविंशति इत्येतैः अंकैः पराजित्य अनेन विजयेन सह अस्याः प्रतियोगितायाः शुभारम्भः कृतः महिलावर्गे अद्य भारतस्य वेल्स इत्येतेन दलेन साकं भारतीय समयानुसारं सार्धपञ्चवादने वॉल्वरहैम्पटन इत्यत्र सामुख्यं भविष्यति इति वार्ताः